శ్రీ గురుభ్యో నమః. స్వామియే శరణమయ్యప్ప. శ్రీ హరిహర పుత్ర అయ్యప్ప స్వామి సహస్రనామ స్తోత్ర పారాయణం. శుక్లాంబరధరం విష్ణుం శశివర్ణం చతుర్భుజం ప్రసన్నవదనం ధ్యాయేత్ సర్వ విఘ్నోపశాంతయే. యశివో నామ రూపాభ్యాం యా దేవీ సర్వమంగళా. తయో సంస్మరణాత్ పుంసాం సర్వతో జయమంగళం. సర్వమంగళమాంగళ్యే శివే సర్వార్థసాధికే. శరణ్యే త్రయంబకే దేవి నారాయణి నమోస్తుతే. అస్య శ్రీ హరిహర పుత్రోర్దివ్య సహస్రనామ స్తోత్ర మహామంత్రస్య శ్రీ అర్థనారీశ్వర భగవాన్ ఋషిః అనుష్టుప్ ఛందః. శ్రీ ధర్మశాస్త్ర పరమాత్మా శ్రీ మణికంఠో మహాశాస్తా దేవత. నమస్వాహ వషట్్రౌషట్్ పల్లవ ప్రతిపాదకాయితి బీజం. హరిహరానందనందనేతి శక్తిః. త్రిభువన ధర్మ సంరక్షణేతి పరమో మంత్రః. యోగయోగ్య యోగధారిణేతి కీలకం. చక్రం చాప సమాస్త్రాన్వితం ఇత్యస్త్రం. పరమదయా రసోద్భాసితమితి నేత్రం. అహరహర్జన రంజనేతి కవచం. శృంగారరస సంపూర్ణ ఇతి యోనిః. నిర్వాణ ఫల సంధాయక ఇతి దిగ్బంధః. రుగ్యజుస్సామాద్ధర్వణ రూపః ఇతి ధ్యానం. శ్రీ పూర్ణ పుష్కలాంబ సమేత హరిహర పుత్ర అయ్యప్ప కైంకర్య రూపే సహస్రనామ జపే వినియోగః. ధ్యానం. ధ్యానమస్య ప్రవక్ష్యామి శృణు సర్వార్థ సిద్ధిదం. హరిహర జన్మ శరీరం మరకత మణిమౌక్తిక ఛాయం. జయతు మమ దేవ శాస్తాః త్రిభువన జన మోహన మూర్తిః. ఇతి ధ్యాత్వా జపేద్ దేవి మంత్రం సర్వార్థ సిద్ధయే. ధ్యాయేదుమాపతి రమాపతి భాగ్యపుత్రం వేత్రోజ్వలం కరతలం భసితాభిరామం. విశ్వైకవస్య వపుషం మృగయా వినోదం వాంఛానురూప ఫలదం వరభూతనాథం. అశ్యామ కోమల విశాలతనుం విచిత్ర వాసోవసానం అరుణోత్పలదామహస్తం. ఉత్తుంగరత్నమకుటం కుటిలాగ్రకేశం శాస్తారమిష్టవరదం శరణం ప్రపద్యే. తేజోమండలమధ్యగం త్రినయనం దివ్యాంబరాలంకృతం. దేవం పుష్పసరీక్షుకార్ముకల సన్మాణిక్య పాత్రాభయం. బిభ్రాణం కరపంకజైః మదగజస్కంధాదిరూఢం విభుం. శాస్తారం శరణం నమామి సతతం త్రైలోక్య సమ్మోహనం. హరిః శివపుత్రో మహాతేజా శివకార్యధురంధరః. శివప్రదశివజ్ఞానీ శైవధర్మసురక్షకః. శంఖధారీ సురాధ్యక్షాశ్చంద్రమౌళీ సురోత్తమః. కామేశః కామతేజస్వీ కామాదిఫలసంయుతః. కళ్యాణః కోమలాంగశ్చ కళ్యాణఫలదాయకః. కరుణాబ్ధిః కర్మదక్షః కరుణారససాగరః. జగత్ప్రియో జగద్రక్షో జగదానందదాయకః. జయాదిశక్తి సంసేవ్యో జనాహ్లాదో జిగీషుకః. జితేంద్రియో జితక్రోధో జితదేవారిసంఘకః. జైమిన్యాదిమునిస్సేవ్యో జరామరణనాశకః. జనార్దనసుతో జ్యేష్ఠో జ్యేష్ఠాదిగణసేవితః. జన్మహీనో జితామోహో జనకేనాభిపూజితః. परमेष्ठी पशुपतिः पङ्कजासन पूजितः पुरहंता पुरत्राता परमैश्वर्यदायकः पवनादिसुरस्सेव्यः पंच ब्रह्मपरायणः पार्वतीतनयो ब्रह्म परानन्दः परात्परः ब्रह्मिष्ठो ज्ञाननिरतः गुणागुणनिरूपकः गुणाध्यक्षो गुणनिधिः गोपालेनाभिपूजितः गोरक्षको गोधनश्च गजारूढो गजप्रियः गजग्रीवो गजस्कन्धो गभस्तिर्गोपतिर्प्रभुः ग्रामपालो गजाध्यक्षो दिग्गजेनाभिपूजितः गणाध्यक्षो गणपतिः गवांपतिरहर्पतिः जटाधरो जलनिभोः जैमिन्यैरभिपूजितः जलन्धरनिहन्ताज सोणाक्षः सोणावाससः सुराधिपो शोकहन्ताज शोभाक्षः सूर्यतेजसः सुरार्चितः सुरैर्वन्द्यः सोणाङ्गः शाल्मलीपतिः सज्ज्योतिश्शरवीरघ्नः शरश्चन्द्रनिभाननः सनकादिमुनिध्येयाः सर्वज्ञानप्रदो विभुः हलायुधो हंसनिभो हा हा हू हू मुखस्तुतः हरिर्हरप्रियो हंसो हर्यक्षासनतत्परः पावनः पावकनिभो भक्तपापविनाशकः भसिताङ्गो भयत्राता भानुमद्भयनाशनः त्रिपुण्ड्रधारी त्रिनयनः त्रिपुण्ड्राङ्कितमस्तकः त्रिपुरघ्नो देववरो देवारिकुलसंहृतः देवसेनाधिपस्तेजः तेजो राशिर्दशासनः दारुणो दोषहन्ता च दोर्दण्डो दण्डनायकः धनुष्पाणिर्धराध्यक्षो धनिको धर्मवत्सलः धर्मज्ञो धर्मनिरतो धनुश्शास्त्रपरायणः स्थूलकर्णो स्थूलतनुः स्थूलाक्षो स्थूलबाहुकः तनूत्तमः तनुत्राणा तारकस्तेजसाम्पतिः योगीश्वरो योगनिधिः योगिनो योगसंस्थितः मन्दारवाटिको मत्तो मलयाचलवासभूः मन्दारकुसुमप्रख्योः मन्दमारुतसेवितः महाभासा महावक्षः मनोहरमदार्चितः महोन्नतो महाकायो महानेत्राः महाहनुः मरुत्पूज्यो मानधनः मोहनामोक्षदायकः मित्रो मेधाहमहौजस्वीः महावर्षप्रदायकः भाषका भाष्यशास्त्रज्ञो भानुमद्भानुतेजसः भवानीपुत्रतो विशग्भवतारणकारणः नीलाम्बरो नीलनिभोः नीलग्रीवो निरञ्जनः नेत्रत्रयो निषादज्ञो नानारत्नोपशोभितः रत्नप्रभो रमापुत्रो रमया परितोषितः राजसेव्यो राजधनः रणदोर्दण्डमण्डितः रमणः रेणुका सेव्यो रजनीचरधारणः ईशानः इभराट् सेव्यः ईषणत्रयनाशनः इडावासो हेमनिभो हैमप्राकारशोभितः हरिहरात्मजः हंसो हयग्रीवो हयप्रियः हाटकस्फटिकप्रख्यो हंसारूढेन सेवितः वनवासो वनाध्यक्षो वामदेवो वराननः वैवस्वतपतिर्विष्णुः विराड्रूपो विशालवान् वेणुनादो वरग्रीवो वराभयकरान्वितः वर्चस्वी विपुलग्रीवो विपुलाक्षो विनोदवान् वैणववनवासश्च वामदेवेन सेवितः वेत्रहस्तो वेषनिधिः वंशदेवो वराङ्गकः ह्रीङ्कारो ह्रीमनः पृष्टो हिरण्यो हेमसम्भवः हुताशो हुतनिष्पन्नो हुङ्कारकृतिसुप्रभुः हव्यवाहो हव्यङ्करश्च हट्टहासो पराहतः अनुरूपो रूपकरश्च अजरो अतनुरूपकः हंसमन्त्रश्च हुतभुक् हेमाम्बरसुलक्षणः नीपप्रियो नीलवासाः निधिपालो निरातपः क्रोडहस्तास्तपस्त्राता तपो रक्षस्तपाह्वयः मूर्ताभिषिक्तो मानधनो मन्त्ररूपो मृडामनुः मेधावी मेधसामुष्णुः मकरो मकरालयः मार्ताण्डो मञ्जुकेशश्च मासपालो महौषधीः श्रोतयः शोभमानश्च सवितास सर्वदेशिकः चन्द्रहासस्य मत्स्यक्तस्य सिभासः समाधिकः सुदन्तः सुकपोलश्च षड्वर्णसम्पदोऽधिपः गरलः कालकण्ठश्च गोनेत्रा गोमुखप्रभुः कौशिकः कालदेवश्च क्रोशकः क्रौञ्चभेदकः क्रियाकरः कृपालश्च करवीरकरोरुहाः कन्दर्पदर्पहारी च कामदाता कपालकः कैलासवासो वरदो विरोचनो विभावसुः बभ्रुवाहो बलाध्यक्षो फणामणिविभूषणः सुन्दरः सुमुखः स्वच्छः सभासच्च सभाकरः शरानिवृत्तः सङ्क्राप्तः शरणागतपालकः तीक्ष्णदंष्ट्रो दीर्घजिह्वः पिङ्गळाक्षः पिशाचः अभेद्य अङ्गधातश्च भोजपालो च भूपतिः घृध्रनासो अविषह्यश्च दिग्देहो दैन्यदाहकः बडबापूरितमुखो व्यापको विषमोचकः वसन्तः समरक्रुद्धः पुङ्गवः पङ्कजासनः विश्वदर्पो निश्चिताज्ञो नागाभरणभूषितः भरतभैरवाकारो भरणो वामनक्रियः सिंहास्यः सिंहरूपश्च सेनापतिर्सकारकः सनातनः सिद्धरुचिः सिद्धधर्मपरायणः आदित्यरूपापदग्धश्च अमृताम्भोदिवासभूः युवराजो योगिवर्यः उषस्तेजो उडुप्रभुः देवादिदेवो दैवज्ञः स्ताम्रोष्ठस्ताम्रलोचनः पिङ्गळाक्षः पिञ्छचूडा फणामणिविभूषितः भुजङ्गभूषणो भोगो भोगानन्दकराभयः पञ्चहस्तेन सम्पूज्यो पञ्चबाणेन सेविताः भवः सर्वोः भानुमयः प्राजापत्यस्वरूपकः स्वच्छन्दश्छन्दशास्त्रज्ञो दान्तो देवमनुप्रभुः दशभुजो दलाध्यक्षो दानवानां विनाशकः सहस्राक्षस्य तन्निष्पन्नः शतानन्दः समागमः गरुडाद्रिवासो गम्भीरो गन्धग्राहो गणेश्वरः गण्डकावासा गोमेधो गोकुलैः परिवेष्टितः परिवेशापदज्ञानी प्रियङ्गुद्रुमवासकः गुहावासा गुरुवरो वन्दनीयो वदान्यकः वृत्ताकारो वेणुपाणिः वीणादण्डधरो हरिः हैमिल्यो होत्र सुभगो हौत्रज्ञश्चौजसाम्पतिः पवमानः प्रजातन्तृप्रदो दण्डविनाशनः निमील्यो निमिषार्धज्ञो निमिषाकारकारणः लिगुडाभो लिडाकारो लक्ष्मीवन्द्यो वरप्रभुः इडाज्ञः पिङ्गळावासो सुषुम्ना मध्यसम्भवः भिक्षाटनो भीमवर्चावरकीर्तिः सभेश्वरः वाचातीतो वरनिधिः परिवेत्रा प्रमाणकः अप्रमेयो अनिरुद्धश्च अनन्तादित्यवर्चसः वेषप्रियो विषग्राहो वरदानकरोत्तमः विपिनो वेदसारश्च वेदान्तैः पारितोषितः वक्रागमो वक्रवाचो बलदाता विमानवान् वज्रकान्ता वंशवरो वटुरक्षाविशारदः वप्रक्रीडो विप्रपूज्यो वेलाराशिश्चलालकः क्रोडस्यः क्रोडनेत्रश्च कोलाहलः कपालभृत् कञ्जरीटो मञ्जुवासः क्रियामानः क्रियाप्रदः क्रीडानादः कीलहस्तः क्रोशमानः कुलान्तकः खनको होतृभागश्च खवासः कचरः खगः गणकोः गुणनिर्धुष्टो गुणत्यागः कुशाधिपः पाटलः पत्रधारी च पालास्यः पुत्रवर्धनः पितृसच्चरितः प्रेष्ठः पापभस्म पुनः शुचिः फालनेत्रः पुल्लकेशो पुल्लकल्हारभूषितः फणिः सेव्यः पट्टभद्रा पटुर्वाङ्मीवयोधिकः चोरनाट्यश्चोरवेशश्चोरग्धश्चौर्यमर्दनः चञ्चलाक्षश्चामरको मरीचिर्मन्दगामिकः मृडाभोमेशवाहश्च मैथिल्यो मोचको मनुः मनुरूपो मन्त्रदेवो मन्त्रराशिर्महादृढः थूपिज्ञो धनदाता च देववन्द्यश्च तारणः यज्ञप्रियो यमाध्यक्षो इभ क्रीडरिभेक्षणः दधिप्रियो दुराधर्षद्दारुपालोदनूजः दामोधरो धामधरो दक्षिणामूर्तिरूपकः शचीपूज्यः शङ्खकर्णाश्चन्द्रचूडो मनुप्रियः गुडरूपो गुडाकेशः कुलधर्मपरायणः कालकण्ठः गाढगात्रो गोत्ररूपः कुलेश्वरः आनन्दभैरवाराध्यो हयमेधफलप्रदः दध्यन्नासक्तहृदयो गुडान्नप्रीतमानसः घृतान्नासक्तहृदयो गौराङ्गो गर्वभञ्जकः गणेशपूज्यो गगनो गणानां पतिगर्जितः छद्महीनः शशिधराः शत्रूणां पतिरङ्गिराः चराचरमयः शान्तः शरभेशस्य तातपः वीराराध्यो वक्रगमो वेदाङ्गो वेदसञ्चरः पर्वतारोहणः पुष्णेः परमेशः प्रजापतिः भावज्ञः भवरोगग्नो भवसागरतारणः चिदग्निदेहश्चिद्रूपो चिदानन्दश्चिदाकृतिः नाट्यप्रियो नरपतिः नरनारायणार्चितः निषादराजः निहारो नेष्ट्रानिष्ठुरभाषणः निम्नप्रियो नीलनेत्रः नीलाङ्गो नीलकेशनः सिंहाक्षः सर्वविघ्नेशः सामवेदपरायणः सनकादिमुनिध्येयः सर्वरीशः षडाननः सुरूपः सुलभस्वर्गः शचीनाथेन पूजितः काकीनः कामदहनो दग्धपापोधराधिपः दामग्रन्थी शतस्त्रीशः तन्त्री पालश्च तारकः ताम्राक्षः तीक्ष्णदंष्ट्रश्च तिलभोज्यस्तिलोदरः माण्डुकर्णो मृडाधीशा मेरुवर्णामहोदरः मार्ताण्डभैरवाराध्योः मणिरूपो मरुद्वहः माशप्रियो मधुपानो मृणालो मोहिनीपतिः महाकामेशनयनो माधवो मदगर्वितः मूलाधाराम्बुजावासो मूलविद्यास्वरूपकः स्वादिष्टानमया स्वस्थः स्वस्ति वाक्यश्रुवायुधः मणिपूराब्जनिलयश्च महाभैरवपूजितः अनाहताब्जरसिको ह्रीङ्कारः रसपेशलः भ्रूमद्यवासो भ्रूकान्तः भरद्वाजेन पूजितः सहस्राराम्बुजावासः सवितः सामवाचकः मुकुन्दश्च गुणातीतो गुणपूज्या गुणाश्रयः धन्यश्च धनभृद्दाहो धनदानकराम्बुजः महाशयो महातीतो मायाहीनो मदर्चितः माठरो मोक्षफलदा मद्वैरिकुलनाशनः पिङ्गळः पिञ्छचूडश्च पिसिताशपवित्रकः पायसानप्रियः पर्वपक्षमासविभाजकः वज्रभूषो वज्रकायो विरिञ्चो वरवक्षसः विज्ञानकलिकाम्बृन्दो विश्वरूपप्रदर्शकः दम्भघ्नो धमघोषघ्नो दासपालस्तपोजसः द्रोणकुम्भाभिषिक्तश्च द्रोहिनाशस्तपातुरः महाधीरेन्द्रवरदश्च महासंसारनाशनः लाकिनी हाकिनी लब्धो लवणाम्भोदितारणः काकीनः कालपाशघ्नो कर्मबन्धविमोचकः मोचकः मोहनिर्भिन्नो भगाराध्यः बृहत्तनुः अक्षयो क्रूरवरदो वक्रागमविनाशनः डाकीनः सूर्यतेजस्वी सर्वभूषश्च सद्गुरुः स्वतन्त्रः सर्वतन्त्रेशो दक्षिणामूर्तिरूपकः चित्सदानन्दकलिकः प्रेमरूपश्च प्रियङ्करः मिद्याजगदधिष्ठानो मुक्तिदः मुक्तिरूपकः मुमुक्षुः कर्मफलदा मार्गदक्षो चकार्मणः महाबुद्धो महाशुद्धो शुकवर्णः शुकप्रियः सोमप्रियः सुरप्रीतः सर्वाराधनतत्परः अजपोजनहंसश्च हलप्राणिप्रपूजितः अर्चितर्वर्चः सोह्वाङ्मिः वीरवेशो विधुप्रियः लास्यप्रियोर्लयकरो लाभालाभविवर्जितः पञ्चानना पञ्चगुरुः पञ्चयज्ञफलप्रदः परशुहस्तापावकेशः पर्जन्यसमगर्जितः पापारिः परमोदारा प्रजेशः पङ्कनाशनः नष्टकर्मा नष्टवैरिः इष्टसिद्धिप्रदायकः नागाधीशो नष्टपापः इष्टनामविधायकः सामरस्योप्रमेयश्च पाषण्डी पर्वतप्रियः पञ्चकृत्योपरोपेतः पञ्चपञ्चातिशायिकः पद्माक्षः पद्मवदनापावकाभप्रियङ्करः कार्तस्वराङ्गो गौराङ्गो गौरीपुत्रो गणेश्वरः आश्लिष्टः श्लिष्टवपुषः सीतांशुः शुभदीधितिः दक्षध्वंसो दक्षकरो वरः कात्यायनीसुतः सुमुखो मार्गणो गर्भो गर्वभङ्गकुशासनः कुलपालपतिश्रेष्ठः पवमानः प्रजापतिः दर्शप्रियो दुर्विकारो दीर्घकायो दिवाकरः भेरीनादप्रियो वृन्दो बृहत्सेनो सुपालकः सुब्रह्मो ब्रह्मरसिको रसज्ञो रजिताद्रिभाः तिमिरघ्नो मिहिराभो महानीलसमप्रभः श्रीचन्दनविलिप्ताङ्गः श्रीपुत्रश्रीतरुप्रियः लाक्षावर्णो लसत्कर्णः रजनीध्वंससन्निभः बिन्दुप्रियो अम्बिकापुत्रो बैन्दवो बलनायकः आपन्नतारकदेवो तप्तः कृच्छूफलप्रदः मरुद्वृतो महाखर्वः चिरावासशिकिप्रियः आयुष्माननघोदूतः आयुर्वेदपरायणः हंसश्च परमो हंसः अवधूताश्रमप्रियः आशुवेगो ह्रस्वहृदयो हयधैर्यफलप्रदः सुमुखो दुर्मुखो विघ्नः अविघ्नो विघ्ननाशकः आर्यनाधार्यमाभासः फल्गुणः पार्वतीप्रियः अरातिघ्नो घनग्रीवो ग्रीष्मः सूर्यसमप्रभः किरीटी कल्पशास्त्रज्ञो कल्पानलविधायकः ज्ञानविज्ञानफलप्रदः विरिञ्चारिविनाशकः वीरमार्ताण्डवरदो वीरबाहुश्च पूर्वजः वीरसिंहासनो विज्ञो वीरकार्योऽस्त्रदानवः नरवीरसुहृद्भ्राता नागरत्नविभूषितः वाचस्पतिः पुराराधीः संवर्तसमरेश्वरः उरुवाङ्गुमापुत्रः कुडुलोकसुरक्षकः शृङ्गाररससम्पूर्णश्च सिन्धूरतिलकाङ्कितः कुङ्कुमाङ्कितसर्वाङ्गो कालकेयविनाशनः मत्तनागप्रियो नीतः नागगन्धर्वपूजितः सुस्वप्नबोधको बोधो गौरी दुःस्वप्ननाशनः चिन्ताराशिपरिध्वंसी चिन्तामणिविभूषितः चराचरजगत्स्रष्टा चलत्कुण्डलकर्णयुग् मुकुरास्यो मूलनिधिः निधिद्वयनिषेवितः नीराजनप्रीतमनः नीरनेत्रो नयप्रदः केदारेश किरातश्च कालात्मा कल्पविग्रह कल्पान्तभैरवाराध्यः काकपत्रशरायुधः कलाकाष्ठस्वरूपश्च ऋतुवर्षादिमासवान् दिनीशमण्डलावासो वासवेन प्रपूजितः बहुलास्तम्भकर्मज्ञो पञ्चाशद्वर्षरूपकः चिन्ताहीनाश्चिदाक्रान्तः चारुपालो बलायुधः बन्धूककुसुमप्रक्यः परगर्वविभञ्जनः विद्वत्तमो विराधग्नः सचित्रश्चित्रकार्मुकः सङ्गीतलोलुपमानसाः स्निग्धगम्भीरगर्जितः तुङ्गवक्त्रस्तवरसः अभ्राभ्यो भ्रमरेक्षणः लीलाकमलहस्ताब्जो बालकुन्दर्विभूषणः लोध्रप्रसवशुद्धाभः शिरीशकुसुमप्रियः त्रासत्राणकरस्तत्त्वः तत्त्ववाक्यार्थबोधकः वर्षीयांश्च विधातव्यो वेदान्तप्रतिपादकः मूलभूतो मूलतत्त्वामूलकारणविग्रहः आदिनाथोक्षयः फलपाणिजन्मपराजितः गानप्रियो गानलोला महेशो विज्ञमानसः गिरिजास्तन्यरसिको गिरिराजः वरःसुतः पीयूषकुम्भहस्ताब्जः पाशत्यागश्चिरन्तनः सुधालालसवक्त्राब्जः सुरद्रुमफलेप्सितः रत्नहाटकभूषाङ्गो रावणादिप्रपूजितः कनत्कालेश सुप्रीतो क्रौञ्चगर्वविनाशनः असेजजनसम्मोह आयुर्विद्याफलप्रदः आवबद्धदुकालाङ्गो हारालङ्कृतकन्दरः केतकीकुसुमप्रीतः कलभैः परिवारितः केकाप्रियो कार्तिकेयः सारङ्गनिनादप्रियः चातकालापसन्तुष्टो चमरीमृगसेवितः आम्रकूटाद्रिसञ्चारीः आम्नायफलदायकः अक्षसूत्रधृतापाणिः अक्षिरोगविनाशनः मुकुन्दपूज्यो मोहाङ्गो मुनिमानसतोषितः तैलाभिषिक्तशुशिराः तर्जनीमुद्रदर्शनः तटान्तिकामनः प्रीतः तमोगुणविनाशनः अनामयो ह्यनादर्शः अर्जुनाभः कुतप्रियः षाड्गुण्यपरिसम्पूर्णः सप्ताश्वादिग्रहैस्तुतः वीतशोकः प्रसादज्ञोः सप्तप्राणवरप्रदः सप्तार्चिश्च त्रिनयनः त्रिवेणीफलदायकः कृष्णवर्त्मा वेदमुखो दारुमण्डलमध्यगः वीरनूपुरपादाब्जो वीरकङ्कणपाणिमान् विश्वमूर्तिः शुद्धमुखो शुद्धभस्मानुलेपनः शुम्भध्वंसिनी सम्पूज्यो रक्तकुम्भकुलान्तकः निषादादिस्वरप्रियो नमस्कारफलप्रदः भक्तारिपञ्चतादायी सज्जीकृतशरायुधः अभयङ्करमन्त्रज्ञो कुब्जिकामन्त्रविग्रहः धूम्रास्तवुग्रतेजस्वीः दशकण्ठविनाशनः आशुगायुधहस्ताब्जोः गदायुधकराम्बुजः पाशायुधसुपाणिश्च कपालायुधसद्भुजः सहस्रशीर्षवदनो सहस्रद्वयलोचनः नानाहेतिधरपाणिः नानास्तिभूषणप्रियः आश्यामकोमलतनुहारक्तापाङ्गलोचनः द्वादशाहक्रतुप्रीतः पौण्डरीकफलप्रदः आप्तोर्यामक्रतुमयः चयनाधिफलप्रदः पशुबन्धफलः दाता वाजपेयात्मदैवतः आब्रह्मकीटजननावा आत्मने चम्पकप्रियाः पशुपाशविभागज्ञोपतिज्ञानप्रदायकः कल्पेश्वरः कल्पवर्यो जातवेदप्रभाकरः कुम्भीश्वरः कुम्भपाणी कुङ्कुमाक्तललाटकः शिलीन्ध्रपत्रसङ्काशः सिंहवक्त्रप्रमर्दनः कोकिलध्वनिताकर्णी कालनाशनतत्परः नैयायिकमतघ्नश्च बौद्धसङ्घविनाशकः हेमब्जाधृतपाणिश्च होमसन्तुष्टमानसः पितृयज्ञश्च फलदः पितेवजनरक्षकः पदातिकर्मनिरतो वृषदाज्यप्रदायकः महासुरवधोद्युक्तः स्वास्त्रप्रत्यस्त्रवर्षकः महावर्षतिरोधानो नागाधृतकराम्बुजः नमः स्वाहा वषट्रौषट् पल्लवः प्रतिपादकः मिहिरः सदृशग्रीवो मिहिरः सदृशस्तवः तन्त्रीवादनहस्ताग्रहः सङ्गीतप्रियमानसः चिदंशमुकुरावासो मणिकूटाद्रिसञ्चरः लीलासञ्चारतनुकः लिङ्गशास्त्रप्रवर्तकः राकेन्दुद्युतिसम्पन्नो यागकर्मफलप्रदः मैनाकगिरिसञ्चारः मधुवंशविनाशनः तालखण्डपुरावासः तमालनिभतेजसः इमं स्तवं नाम्नां सहस्रं पटेभ्यः प्रीतमानसः प्रभाते वा प्रदोषे वा अय्यप्प परमात्मनः स तु तीर्त्वा भवाम्बोधि मापदः सकलापि स्यास्तु सायुज्यमाप्नोति हरिहर प्रसादतः बहुनात्र किमुक्तेन यं यं कामयते नरः तं तं काममवाप्नोति स्तोत्रेणानेन मानसः यत्र पूजा विधानेन जपाभिषेकतर्पणैः यस्तु कुर्वीत सहसा सर्वान् कामानवाप्नुयात् इह लोके सुखी भूत्वा परे मुक्तो भविष्यति इति सहस्रनामस्तोत्र पारायणं सम्पूर्णम् हरिः ॐ तत्सत् स्वामी शरणमय्यप्प स्वामी शरणमय्यप्प स्वामी शरण